एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अधिकार दुरुपयोगानुसन्धानायोगेन पतञ्जलि योग पीठायुर्वेद संस्थान नेपालस्य भूमि प्रकरणे पूर्व प्रधानमन्त्रिणा माधव कुमार नेपालेन सहितानाम् 93 जनानाम् विरूद्धे विशेष न्यायालये ह्य आरोपपत्रम् पञ्जीकारितम् वर्तते। आयोगेन प्रकरणेऽस्मिन् पूर्व प्रधानमन्त्रिणा नेपालेन सहितानाम् 93 जनानाम् विरूद्धे 18 कोटीनाम् 50 लक्षाणाम् 50 सहस्राणाम् च रूप्यकाणाम् हानिवित्तम् अभियाचितमस्तीति आयोगस्य प्रवक्ता राजेन्द्र प्रसाद पौडेलः असूचयत्। काभ्रेपलाञ्चोक जनपदस्य नासिकास्थान सांगावर्तिनी महेन्द्र ज्योतिस्थाने संस्थान सञ्चालनाय निर्धारित सीम्नः अधिकायाः भूमेः क्रयणस्य न्यूनमूल्येन कृत्वा अधिकेन मूल्येन विक्रयणस्य च अभियोगे आयोगेन एतेषाम् विरूद्धे अभियोगपत्रम् पञ्जीकारितम् वर्तते। संस्थायाः संस्थापक सदस्येन शालिग्राम सिंहेन सहितैः जनैः संस्थायाः नाम प्रयुज्य संस्थायाः उद्देश्यस्य प्रतिकूलम् दुर्नियत्य स्वेन सहितानाम् प्रतिवादिनाम् लाभाय सार्वजनिक पदस्थैः जनैः सह समन्वयम् विधाय एतस्याः भूमेः क्रयणप्रकरणे भूसम्बद्धाधिनियम विपरीतम् कार्यम् विहितमस्तीति आयोगस्य निष्कर्षो वर्तते। अत्रान्तरे अभियोग पञ्जीकरण सम्बद्धम् पत्रम् संसद सचिवालये प्रापितमस्तीति आयोगस्य प्रवक्ता पौडेलः असूचयत्। अभियोग पत्रस्य पञ्जीकरणेन सहैव एकीकृत समाजवादी दलस्य अध्यक्षस्य पूर्व प्रधानमन्त्रिणः माधव कुमार नेपालस्य सांसद पदम् स्वतः निलम्बितम् वर्तते। नेपालः संघीय संसद रौतहट जनपदस्य प्रतिनिधिसभायाः प्रथम निर्वाचन क्षेत्रात् निर्वाचितः सांसदो वर्तते। अत्रान्तरे नेपालेन पतञ्जलि योग पीठायुर्वेद संस्थान नेपालस्य भूमि प्रकरणे आत्मनः दोषो नास्तीति उक्तम् वर्तते। रौतहट जनपदात् काष्ठमण्डप प्रत्यागमन समये सिमरा विमानस्थले संचारकर्मीभिः सह पूर्व प्रधानमन्त्री नेपालः आत्मना किञ्चिदपि द्रव्यम् गृहीतम् नास्ति न च कस्मै अपि मन्त्रिणे कर्मचारिभ्यो वा तदर्थम् निर्देशितम् अस्तीति च उक्तवान् वर्तते। सभामुखस्य देवराज घिमिरे विदस्य प्रयासेन दलेषु भूयो भूय विमर्शनम् सदपि सहमतेर्धरणाभावात् प्रतिनिधिसभाया ह्यस्तनोपवेशोऽपि कार्यसूच्याम् प्रवेशनेन विनैव स्थगितः आसीत्। उपवेशस्य उपवेशनाय भूयो भूय समयम् निर्धार्यापि उपवेशनस्य कृते अनुकूल वातावरणस्य निर्माणाभावानन्तरम् सभामुखेन अद्य दिवा एकवादनाय उपवेशम् निर्धार्य ह्यस्तनोपवेशम् सभामुख घिमिरे स्थगितीकृतवान्। कतिपय दिवसेभ्य प्रवेशनाय देशान्तर प्रवेशानुज्ञापत्र प्रकरणे गृहमन्त्रिणः रमेश लेखकस्य त्यागपत्रम् अभियाच्य प्रतिपक्षी दलैः नेकपा माओवादी केन्द्रेण राष्ट्रपा दलेन राष्ट्रिय प्रजातन्त्र दलेन नेकपा एकीकृत समाजवादी दलेन च उपवेशस्य सञ्चालनाय अवरोधः विधीयमानो वर्तते। प्रतिनिधिसभायाः उपवेशस्य सञ्चालनस्य अभावात् आगामिनः आर्थिक वर्षस्य आयव्ययकम् आधृत्य विमर्शनम् विधातुम् शक्तम् नास्ति। प्रमुख प्रतिपक्षिणा नेकपा माओवादी केन्द्रेण संसदः गतिरोधस्य अन्त्याय सृजनात्मक रूपेण रचनात्मक रूपेण च अग्रे वर्धितुम् निर्णीतम् वर्तते। दलाध्यक्षस्य पुष्पकमलदाहाल प्रचण्डस्य निवासे ह्य उपविष्टेन पदाधिकारिणाम् उपवेशेन पर्यटनाय देशान्तर प्रवेशानुज्ञापत्रस्य व्याजेन नागरिकेषु जायमानस्य वञ्चनस्य अनुसन्धानम् अपरिहार्यमस्तीति निष्कर्षः प्रकाशितो वर्तते। राष्ट्रियसभाया ह्यस्तनोपवेशेऽपि आगामिनः आर्थिक वर्षस्य कृते प्रस्तावितम् नेपाल सर्वकारस्य आयव्ययकम् आदृत्य विमृष्टम् वर्तते। विमर्शने सांसदा गोपाल भट्टराई, माया प्रसाद शर्मा, वामदेव गौतमः, किरणबाबु श्रेष्ठ, शेखर कुमार सिंह, मदन कुमारी शाह गरिमा, सुमित्रा विशी, पूजा चौधरी च भागम् अगृह्णन्। तत्पूर्वम् उपवेशस्य आकस्मिक समये सांसदाः सर्वकारेण वर्धमानस्य महार्घस्य नियन्त्रणाय सबल कार्यक्रमाः आनेयाः, धार्मिक पर्यटनस्य विकासाय सर्वकारेण योजना निर्मातव्या चेति सामयिक विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रियसभायाः अपरोपवेश अद्य दिवा सपादैकवादने वसति। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा भासते पूर्वराजस्य समर्थकैः वर्तमानावस्थायां प्रदर्शनकरणम् अर्थहीनम् वर्तते। ह्य जनकपुरधामनी पत्रकारै सह भाषमाणः सभापतिः देउवा राजवादिनाम् आन्दोलनम् असफलम् सम्भूतमस्तीति टिप्पणीम् अकरोत्। सभापतिः देउवा गृहमन्त्रिणः त्यागपत्रस्य याचना तर्कहीनास्तीति भाषमाणः संसदि अवरोधम् न कर्तुम् प्रतिपक्षिदलानि अन्वरुणात्। गृहमन्त्री रमेश लेखकः विपदः प्रतिकार्याय पूर्वकार्याणि प्रभावकारिरूपेण सञ्चालयितुम् अन्तर्गतस्य निकायान् तत्परावस्थायाम् स्थातुम् च निर्दिशति। गृहमन्त्री लेखक पूर्वेद्यु सप्तानामेव प्रदेशानाम् सप्तसप्ततेरेव जनपदानाम् प्रमुख जनपदाधिकारीभिः सहिताभिः सुरक्षा समितिभिः सह साञ्जालिकमाध्यमेन उपवेशम् सञ्चाल्य पूर्वतः अपेक्षया सावधानपूर्वकम् पूर्वकार्येषु प्रवर्तितुम् सहभागिनः सर्वान् पक्षान् निरदिशत्। प्रतिनिधिसभाया अन्तर्गतया राज्यव्यवस्था सुशासन समित्या गत विक्रमवर्षीयम् नेपाल नागरिकता द्वितीय संशोधन विधेयकम् आदृत्य संशोधनकर्तृभिः सांसदैः सह विमर्शनम् प्रारब्धम् अस्ति। समिते ह्यस्तनोपवेशे संशोधनकर्तृभिः सांसदैः मातुः नाम्ना नागरिकता प्रमाणपत्रस्य प्राप्तेः व्यवस्था सहजीकर्तव्या, ब्रिटिश गोर्खा सैनिकानाम् सन्ततेः समावेशनस्य विषयः स्पष्टीकर्तव्यश्चेति बलम् प्रादात्। सप्तकोशी नद्याम् उद्धाराभ्यासस्य क्रमे निमज्य द्वौ सशस्त्र प्रहरिणौ विलुप्तौ स्तः। सप्तकोशी नद्याम् जलपोतेन सहितस्य उद्धार सम्भवस्य अभ्यासस्य क्रमे निमज्य द्वौ प्रहरिणौ विलुप्तौ इति ज्ञापितम् वर्तते। विलुप्तौ सूरज साउद हरदेव राजवंशी च वर्तेते इति प्रहरिणा ज्ञापितमस्ति इति समाचाराः।